इन्द्रमच्छ सुता इमे वृषणय्यन्त हरजः सृष्टे जाता स इन्दवः स्वर्विदाः अजम्भरा आजसा दशरिन्द्र आजपवते सुतः स्वभाजयित्रस्य चेतति यथा आमिदे अस्येदिन्द्रोपदेष्वाग्राभम् गृह्णेत सा दशम् वज्रम् च वृषणम् भरत्समप्सुजित प्रधन्वासो भजाग्रभिरिन्द्रादेन्दो परिस्रव व्युमन्दम् शुष्पमाभरा स्वर्विदम् इन्द्रादवृषणम् मदम् पवस्व विश्वदर्शदः सहस्रयामापधिकृद्विचक्षणः अस्मभ्यम् गातवित्तमो देवेभ्यो मधुमत्तमः सहस्रैजाहि पथिभिः कनिक्रदत पवस्व देववीतज इन्दोधाराभिरोजसा आकलशम् मधुमान् सोमनःसदः तवद्रप्सा उदप्रद इन्द्रम् मदा आजवावृधुः त्वाम् देवासो अमृता आजकम् बभः आनः सुता स इन्दवः पुनानाधावतारयिम् वृष्टिद्यावोरेत्यापस्वर्विदाः सोमः पुनान ओर्मिणा व्योमारम् विधावते अग्रे वाचः पवमानः करिक्रदत धेभिरहिन्वन्दिवादिनम् वरे क्रीडन्तमत्यभिन् अभिद्रपृष्ठम् मतयः समस्मरन् असर्जकलशाम् अभिमेढ्ये सप्तर्णवा जजुः पुनानो वाचम् जनयन्नशिष्यदत पवते हरियतो हरिरतिः पराम् शिरम् ह्या अभ्यर्षन् स्तोतृभ्यो वीरवद्यशाः अजापवस्पदे वजर्मधार्धारा असृक्षत रेभन् पवित्रम् पर्येषु विश्वदाः